18 अध्याय। ओम श्री कृष्ण पर ब्रह्मणे नमः।
ओम श्री कृष्ण पर ब्रह्मणे नमः।
श्रीमद् भगवद् गीता
श्रीमद् भगवद् गीता
अथ षोडशोऽध्यायः
अथ षोडशोऽध्यायः
दैवासुर संपद विभाग योगः
दैवासुर संपद विभाग योगः
श्री भगवानुवाच
श्री भगवानुवाच
अभयं सत्व संशुद्धिः
अभयं सत्व संशुद्धिः
ज्ञान योगं व्यवस्थितिः
ज्ञान योगं व्यवस्थितिः
दानं दमश्च यज्ञश्च
दानं दमश्च यज्ञश्च
स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोधः
अहिंसा सत्यमक्रोधः
त्यागशान्तिरपैशुनम्
त्यागशान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वम्
दया भूतेष्वलोलुप्त्वम्
मार्दवम् ह्रीरचापलम्
मार्दवम् ह्रीरचापलम्
तेजक्षमा धृतिशौचम् अद्रोहो नातिमानिता
अद्रोहो नातिमानिता
भवन्ति संपदं दैवीं
भवन्ति संपदं दैवीं
अभिजातस्य भारत
अभिजातस्य भारत
दम्भो दर्पाभिमानश्च
दम्भो दर्पाभिमानश्च
क्रोध पारुष्यमेव च
क्रोध पारुष्यमेव च
अज्ञानं चाभिजातस्य
अज्ञानं चाभिजातस्य
पार्थसम्पदमासुरीम्
पार्थसम्पदमासुरीम्
दैवी सम्पद्विमोक्षाय
दैवी सम्पद्विमोक्षाय
निबन्धाय सुरीमता
निबन्धाय सुरीमता
मासु च सम्पदं दैवीम्
मासु च सम्पदं दैवीम्
अभिजातोऽसि पाण्डव
अभिजातोऽसि पाण्डव
द्वौ भूतसर्गौ लोकेऽस्मिन्
द्वौ भूतसर्गौ लोकेऽस्मिन्
दैव आसुर एव च
दैव आसुर एव च
दैवो विस्तरश प्रोक्तः
दैवो विस्तरश प्रोक्तः
आसुरं पार्थ मे शृणु
आसुरं पार्थ मे शृणु
प्रवृत्तिं च निवृत्तिं च
प्रवृत्तिं च निवृत्तिं च
जनान विदुरासुराः
जनान विदुरासुराः
न शौचं नापि चाचारः
न शौचं नापि चाचारः
न सत्यं तेषु विद्यते
न सत्यं तेषु विद्यते
असत्यमप्रतिष्ठन्ते
असत्यमप्रतिष्ठन्ते
जगदाहुरनीश्वरम्
जगदाहुरनीश्वरम्
अपरस्परसम्भूतम्
अपरस्परसम्भूतम्
किमन्यत् कामहैतुकम्
किमन्यत् कामहैतुकम्
एतां दृष्टिमवष्टभ्य
एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धयः
नष्टात्मानोऽल्पबुद्धयः
प्रभवन्त्युग्रकर्माणः
प्रभवन्त्युग्रकर्माणः
क्षयाय जगतो हिताः
क्षयाय जगतो हिताः
काममाश्रित्य दुष्पूरम्
काममाश्रित्य दुष्पूरम्
दम्भमानमदान्विताः
दम्भमानमदान्विताः
मोहा गृहीत्वा सद्ग्राहान्
मोहा गृहीत्वा सद्ग्राहान्
प्रवर्तन्ते अशुव्रताः
प्रवर्तन्ते सुचिव्रताः
चिन्तामपरिमेयं च
चिन्तामपरिमेयं च
प्रलयान्तामुपाश्रिताः
प्रलयान्तामुपाश्रिताः
कामोपभोग परमाः
कामोपभोग परमाः
एतावदिति निश्चिताः
एतावदिति निश्चिताः
आशा पाशशतैर्बद्धाः
आशा पाशशतैर्बद्धाः
कामक्रोध परायणाः
कामक्रोध परायणाः
ईहन्ते काम भोगार्थम्
ईहन्ते काम भोगार्थम्
अन्यायेनार्ध सञ्चयाम्
अन्यायेनार्ध सञ्चयाम्
इदमद्य मया लब्धम्
इदमद्य मया लब्धम्
इमं प्राप्स्ये मनोरथम्
इमं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे
इदमस्तीदमपि मे
भविष्यति पुनर्धनम्
भविष्यति पुनर्धनम्
असौ मया हतः शत्रुः
असौ मया हतः शत्रुः
हनिष्ये च परानपि
हनिष्ये च परानपि
ईश्वरोऽहमहं भोगी
ईश्वरोऽहमहं भोगी
सिद्धोऽहं बलवान् सुखी
सिद्धोऽहं बलवान् सुखी
आढ्योऽभिजनवानस्मि
आढ्योऽभिजनवानस्मि
कोऽन्योऽस्ति सदृशो मया
कोऽन्योऽस्ति सदृशो मया
यक्ष्ये दास्यामि मोदिष्या
यक्ष्ये दास्यामि मोदिष्या
इत्यज्ञानविमोहिताः
इत्यज्ञानविमोहिताः
अनेकचित्तविभ्रान्ताः
अनेकचित्तविभ्रान्ताः
मोहजालसमावृताः
मोहजालसमावृताः
प्रसक्ता कामभोगेषु
प्रसक्ता कामभोगेषु
पतन्ति नरके अशुचौ
पतन्ति नरके अशुचौ
आत्मसंभाविता स्तब्धाः
आत्मसंभाविता स्तब्धाः
धनमानमदान्विताः
धनमानमदान्विताः
यजन्ते नाम यज्ञैस्ते
यजन्ते नाम यज्ञैस्ते
दम्भेना विधिपूर्वकम्
दम्भेना विधिपूर्वकम्
अहङ्कारं बलं दर्पम्
अहङ्कारं बलं दर्पम्
कामं क्रोधं च संश्रिताः
कामं क्रोधं च संश्रिताः
मामात्मपरदेहेषु
मामात्मपरदेहेषु
प्रद्विषन्तोऽभ्यसूयताः
प्रद्विषन्तोऽभ्यसूयताः
तानहं द्विशतक्रूरान्
तानहं द्विशतक्रूरान्
संसारेषु नराधमान्
संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभान्
क्षिपाम्यजस्रमशुभान्
आसुरीष्वेव योनिषु
आसुरीष्वेव योनिषु
आसुरीं योनिमापन्नाः
आसुरीं योनिमापन्नाः
मूढा जन्मनि जन्मनि माम प्राप्यैव कौन्तेया
माम प्राप्यैव कौन्तेया
ततो यान्त्यधमां गतिम्
ततो यान्त्यधमां गतिम्
त्रिविधं नरकस्येदम्
त्रिविधं नरकस्येदम्
द्वारं नाशनमात्मनः
द्वारं नाशनमात्मनः
कामक्रोधस्तथा लोभः
कामक्रोधस्तथा लोभः
तस्मादेतत्रयं त्यजेत्
तस्मादेतत्रयं त्यजेत्
एतैर्विमुक्तकौन्तेया
एतैर्विमुक्तकौन्तेया
तमोद्वारैस्त्रिभिर्नरः
तमोद्वारैस्त्रिभिर्नरः
आचरत्यात्मनः श्रेयः
आचरत्यात्मनः श्रेयः
ततो याति परां गतिम्
ततो याति परां गतिम्
यस्यास्त्रविधिमुत्सृज्य
वर्तते कामकारतः
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहार्हसि ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः